मातो वंदे संस्कृत मातरम् संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानन्दमागुदं मन्ये वंदे संस्कृत मातरम् वंदे संस्कृत मातरम् वंदे संस्कृत मातरम् ॐ सगना भवतु सगनौ भुनक्तु सकवीर्यं करवावहै तेजस्विनावधिदमस्तु मा विद्विषावहैः ॐ शान्ति शान्ति शान्तिः। गीतं गायामि वा
महोदय? ओके
ओके। संस्कृतेन सम्भाषणं कुरु जीवनस्य परिवर्तनं कुरु संस्कृतेन सम्भाषणं कुरु जीवनस्य परिवर्तनं कुरु यत्र यत्र गच्छसि पश्य तत्र संस्कृतं यत्र यत्र गच्छसि पश्य तत्र संस्कृतं संस्कृतेन संरक्षणं कुरु संस्कृतेन संरक्षणं कुरु संस्कृतेन सम्भाषणं कुरु जीवनस्य लक्ष्यमस्ति किम् जीवनस्य लक्ष्यमस्ति किम् जीवनस्य लक्ष्यमेव संस्कृतस्य वर्धनम् जीवनस्य लक्ष्यमेव संस्कृतस्य वर्धनम् स्फूर्तिरस्ति तत्र प्रीतिरस्ति स्फूर्तिरस्ति तत्र प्रीतिरस्ति स्फूर्तिरस्ति प्रीतिरस्ति संस्कृतस्य वर्धने स्फूर्तिरस्ति प्रीतिरस्ति संस्कृतस्य वर्धने जिजीवि माम जिजीविषाम संस्कृताय जिजीविषाम संस्कृताय रक्षयाम संस्कृतिं जिजीविषाम संस्कृताय रक्षयाम संस्कृतिं समर्पयाम संस्कृताय जीवनं समर्पयाम संस्कृताय जीवनं संस्कृतेन सम्भाषणं कुरु जीवनस्य परिवर्तनं कुरु जागृयाम वयं प्रेरयाम जागृयाम वयं प्रेरयाम जागृयाम प्रेरयाम सर्वहिन्दुसोदरान् जागृयाम प्रेरयाम सर्वहिन्दु सोदरान् जिबीबिषाम जिबीबिभाम वयं पाययाम जिबीबिभाम पाययाम संस्कृतामृतं सदा देशहिता चिन्तनं विनायस्य जीवनं देशहिता चिन्तनं विनायस्य जीवनं व्यर्थमेव तस्य गृहजीवनं व्यर्थमेव तस्य गृहजीवनं संस्कृतेन सम्भाषणं कुरु जीवनस्य परिवर्तनं कुरु ऐक्यमस्तु अचलबुद्धिरस्तु ऐक्यमस्तु अचलबुद्धिरस्तु ऐक्यमस्तु अचलदास्तु संस्कृताभिमानिनां ऐक्यमस्तु अचलदास्तु संस्कृताभिमानिनां धीरदास्तु नैव भीतिरस्तु धीरदास्तु नैव भीतिरस्तु धीरदास्तु भीतिरस्तु मास्तु उदासीनद धीरदास्तु भीतिरस्तु मास्तु उदासीनद मातृभूमि सेवनं मातृभूमि सेव मातृभूमि सेवनं दिनदलितरक्षणं मातृभूमिसेवनं दिनदलितरक्षणं मातृभूमिसेवनं दिनदलितरक्षणं संस्कृतय प्रचाराय एव जीवनं संस्कृतप्रचाराय एव जीवनं संस्कृतप्रचाराय एव जीवनं संस्कृतेन सम्भाषणं कुरु जीवनस्य परिवर्तनं कुरु। धन्यवादः महोदय।
Astu. So today we will start with our lesson Tavatu Pratyanta, which is Bhutkala Rupaha. So generally in Sanskritam there are two kinds of words. One is called as Subantam, the other one is called as so we have Subantam. This is the one kind of word that we have. The other one is Tigantam. Astu. These are the two kinds of words that we have with respect to Sanskritam. Now, what is Sugantam and what is Tigantam? So, if we are using Ramaha, Ramo, Ramaha, right? When we are trying to use words with respect to nouns, right? These kind of words are classified as Tigantams. And if we are using kind of actions or verbs, then we are using Tigantas or Tigantam, Subantam and Tigantam. Now, Dhatu, whenever we have Dhatu, these with Ting, Ting Pratyaya, Dhatu plus Ting Pratyaya, Ting Pratyaya, these become Tigantams. This is what is Tigantam. Dhatu plus Ting Pratyaya. Pratyaya ityukte suffix. These are called as Tiganta. Tigantam. And if we are using Pratipadikam, which is the root for these kind of words, which are not Dhatus, right? Pratipadikams. Pratipadikam. And we, Pratipadikam, and we are using Sup Pratyaya. Sup Pratyaya. When using these, it is Sup. This is Sup Pratyaya. So let me erase this. Okay. So we kind
sorry.
Of
use. Sorry, Mohdaya, what are you explaining? I am not able to understand.
Right. In Sanskrit, words can be classified into Subantams and Tigantams.
Okay.
Okay. So what Subantam? Subantam is a Pratipadikam plus Supratyaya. That is what is a Subantam. That is what is called a Subantam. What kind of words did we see now? Ramaha, Ramasya, Sita, Sitayaha. So all these are Subantams. Whenever we are trying to use nouns, this is Pratipadikam plus Sup. These are the two kinds of words that you have. One is Subantam, the other one is Tigantam. So, today, if we look at some of the lessons that we are trying to do, they are actually Tigantas converted into Subantas. These are the two kinds of words that we'll have in Sanskrit. One is Subantam, the other one is Tigantam. So, Subantam is essentially some kind of a Pratipadika, root, some kind of root word. You can say some kind of a suffix. Prefix plus sup pratyaya. Pratyaya is again, it is a suffix here. If we are trying to use this, it becomes a subantam. Similarly, for an action, which is kind of a dhatu. Dhatu is again a root word. Plus tiga, ting. That will become tigantam. These are the two things that we will have with respect to words in Sanskrit. How a word can be classified in Sanskrit. It can be either subantam or it can be either a tigantam. And the other thing is avyaya. We'll see what avyayas are later. It is kind of joining. Something that is used to join words is called as an avyaya, right? That is what we will use. To add to subantas and we'll come to the definition of avyaya later. But if you want to look at the word, how they are formed, this is how they are formed. We have subantas and tigantam. Subantam and tigantam. This is how the word in Sanskrit will be classified. Okay, so today, we will look at some of these here. For example, we have khadati, right? We have khadati. Now it is khad dhatu, khad. Khad dhatu plus tigantam. That is how it is formed. So it is becoming khadati. Khadati is eating, right? This is what we know. Similarly, if we want to refer in past, it will become khaditavan. Khadati is action. Khaditavan means we already ate. That is what is Khaditavan. But when we look at Khaditavan, it is not behaving like a Tigantam. It is kind of a Subantam. It is kind of a Subantam. That is what is Khaditavan. Khaditavan, Khaditavanto, Khaditavanta. That is how it will be. So we can write Vibhaktis for this as a Khaditavan. So Khaditavat Shabdaha. That will how it will become khaditavat shabdaha. So that is why it will have a rupam like this. So for masculine gender, we are when it is used in Bhutkala Rupani here, what is added here is Tavatu Pratyanta. Tavatu Pratyanta is being added and the Khad Shabda is becoming Khaditavan. Okay. For masculine gender, Khaditavati for feminine gender. But if we are trying to use that action, Bhalakaha Khadati, Balika Khadati. Right? When we are looking at the word, right, it is here a Tigantam. It is basically a Tigantam. The word itself is used as a Tigantam. The action will be referred to as Khadati. Balakaha Khaditi, Khadati, Balika Khadati. Right? But when it comes to the past action here, it is basically used as Tavatu Pratyanta. It is becoming Khaditavan. Balakaha Khaditavan, Balika Khaditavati. That is how the transformation of the word or the usage in Bhutkala Rupani is there. That is all that we will try to understand when it is used in past tense. Bhutkala Rupani means past tense. Khaditavan, he ate. That is what is Khaditavan. Khaditavan ityukte, it is already for masculine gender. Kaha Khaditavan, Saha Khaditavan, Saha Khaditavan. So similarly, Pathati, Adhya Patati, Hyaha Patitavan, Hyaha Patitavan. Balakaha Adhya Patati, Balakaha Hyaha Patitavan. Balakaha Adhya Khadati. Adhya Khadati ityukte, he is eating now or he is eating today. Adhya Khadati, Balakaha Yaha Khaditavan, Balakaha Adhya Kridati, Balakaha Yaha Kriditavan, Balakaha Yaha Kriditavan. That is how the change is going to happen. Similarly, Balika Adhya Patati, Balika Yaha Patitavati, it is going to become Vati. It is one there, it is here Vati. So, Patitavati. But for present tense, it is Patati only. It is going to be used as Tigantam, okay? But when it is used in Subantam Rupam, it is going to be changed. So, Balika Yaha Pathitavati, Pathitavati, okay? Patati is a Tigantam, Pathitavati is a Subantam Rupam, it is a Strilinga Rupam, astu? So, Balika Patati, Balika Adhya Patati, Balika Yaha Pathitavati, Balika Adhya Khadati, Balika Yaha Khaditavati, Balika Adhya Kriditavati, Balika Yaha Kriditavati.
Mahodaya, ek prashnam asti. So, all the verbs, when we are using them as nouns, in Bhutakala Rupani, they will all be nouns? Is that what you are saying?
Yes. The action, now the word form is actually a kind of a noun form. That is what the Rupam is.
Okay. Thank you.
So this kind of conversions of what you call the dhatus, which are expressed as tigantams, into subantams are called as krudantas, krudantaha iti ukte. So they are basically, we call them as krudantas iti vadati vayam. So, what, how and what is that, those are covered in advanced classes. For now, it is not required. But for now, what we are understanding is that the action or the verb is kind of converted into a noun form usage. And this noun form word will have vibhaktis. It will have seven declensions. We can have seven declensions for these verb. Patitavat shabdaha. It will have patitavan, patitavanto, patitavatya, patitavati, patitavatyo, patitavatyaha. So, ekavachanam, vivachanam and bahuvachana rupan from srilingam and for pullinga shabda. All this will be there. So, we will see ekavachana rupam and bahuvachana rupam today. Khadati, khaditavati, kridati, kriditavati. So, this is how it will be for srilinga usage or srilinga rupa padam. Astu, so Balakaha Idanim Patati, Balakaha Parahyaha Patitavan. Day before yesterday, he has read. Balakaha Praparayaha Patitavan. Balakaha Idanim Tarati, Idanim Ityukte now, Balakaha Idanim Tarati, Balakaha Parahyaha Tirnavan, Tirnavan, Balakaha Praparayaha Tirnavan. Balakaha Idanim Khadati, Balakaha Parahyaha Khaditavati. Balakaha Praparayaha खादितवती बालिका इदानीं पठति बालिका परह्यः पठितवती खादितवती बालिका क्रीडितवती सो इट विल बिकम वती तीर्णवती तीर्णवती सो दैट इज हाउ वी आर गोइंग टू यूज फॉर स्त्रीलिंग रूपम अस्तु सो हियर वी हैव सम वर्ड्स सो उषा भगिनी कैन यू प्लीज रीड देम आउट
Yes, ma'am.
So we have the Vartamana Kala Rupam and Bhut Kala Rupam for Pumlingam and Strilingam.
Can you magnify it, sir? Hello?
Yes, yes, sir. The kind of burning. I'm trying to do that. Possibly this has gone down. One second, let me try to bring it here. सम्यक् अस्ति वा भगिनि
अस्तु महोदय वर्तमानकाले गच्छति भूतकाले गतवान् पुंलिङ्गं गतवती स्त्रीलिङ्गम् आगच्छति वर्तमानकाले आगतवान् भूतकाले पुंलिङ्ग आगतवती भूतकाले स्त्रीलिङ्ग उपविशति वर्तमानकाले उपविष्टवान् उपविष्टवती उत्तिष्ठति वर्तमानकाले उत्थितवान् उत्थितवती खादति वर्तमानकाले खादितवान् पुंलिङ्गे भूतकाले खादितवती स्त्रीलिङ्गे भूतकाले पिबति वर्तमानकाले पीतवान् पीतवती पठति पठितवान् पठितवती लिखति लिखितवान् लिखितवती वदति उक्तवान् उक्तवती शृणोति श्रुतवान् श्रुतवती पश्यति दृष्टवान् दृष्टवती चिन्तयति चिन्तितवान् चिन्तितवती पृच्छति पृष्टवान् पृष्टवती ददाति दत्तवान् दत्तवती स्वीकरोति स्वीकृतवान् स्वीकृतवती चलति चालितवान् चालितवती
सम्यक् भगिनि अस्तु अग्रे अग्रे इन्द्रा भगिनि
खावति खावितवान् एण्ड् खावितवती गायति गीतवान् गीतवती नृत्यति नृत्यवान् नृत्यवती क्रीडति क्रीडितवान् क्रीडितवती हसति हसितवान् हसितवती रोदिति बिकम्स् रुदितवान् अण्ड् रुदितवती पचति बिकम्स् पक्तवान् पक्तवान् अण्ड् पक्तवती परिवेष्यति इस् परिवे परिवेश्यतवान् and परिवेशतवति नयति नीतवान् नीतवति आनयति आनीतवान् आनीतवति स्मरति स्मृतवान् and स्मृतवति विस्मरति विस्मृतवान् विस्मृतवति क्रीणाति क्रीतवान् and क्रीतवति प्रेषयति becomes प्रेषितवान् and प्रेषितवति प्राप्नोति becomes प्राप्तवान् and प्राप्तवति
समीचीनं भगिनि अग्रे अग्रे तङ्गं भगिनि
नमस्कार महोदय अस्मि महोदय
नमस्कार भगिनि
स्विम् तरति तीर्णवान् तीर्णवती टु फाल् पतति पतितवान् पतितवती टु मीट् मिलति मिलितवान् मिलितवती टु नोस् जानाति जानवान् ज्ञातवान् ज्ञातवती ज्ञातवान् ड्राप् लेट् गो त्यजति
त्यक्तवती
टु होल्ड् गृह्णाति गृह्णाति गृहीतवान् गृहीतवती
टु सेल्
जिग्रति घ्रातवान् घ्रातवती टु वियर् धरति धृतवान् धृतवती टुल् वसति अशितवान्
उषितवान्
उषितवती
समीचीनं
टु स्लीप् निद्राति निद्राणवान् निद्रितवती सारि टु प्रे नमति नतवान् नतवती टु मेडिटेट् कृतवती सोरि डु योगासनं करोति योगासनं कृतवती to exercise vyayamam krutavati shaktavan no, actually I'm seeing through my mobile, so I had to okay. Shaktavan Shaktavati to do Karoti Krutavan Krutavati Dhanyavad Mahodaya.
So these are the usages in Ekavachana Rupam. So Gatavan Gatavati उक्तवान् उक्तवती आगतवान् आगतवती upavishthavan, upavishthavati. All these usages for pullingam or strilingam are essentially done in ekavachana rupam.
Mahodaya, eka samshaya.
Namati,
is it natavan or namattavan?
Natavan iti asti bhagini atra.
Natavan only?
Natavan asti asti.
Okay.
So when we are going for other rupams, there is a small change. So for me also, this was the question. It is, I have checked the other book also, it is Natavan only. Astu, so agre, for Bhutakala Rupani, Bahuvachana Rupam, we will see how this is expressed in plural. So far we have seen in singular sense, Ekvachana Rupam. Bahuvachana Rupam is plural. How is it going to be? So, balakaha adhya patanti. We have seen patati patanti. Balakaha patati, balakaha patanti. Samichinamva? Similarly, if it is going to be used in past tense, it is going to be patita vantaha. Balakaha shyaha patita vantaha. Balakaha adhya patanti. Balakaha shyaha patita vantaha. That is how it is going to be. Similarly, balikaha adhya patanti, balikaha hyaha patita vatyaha adhya patanti, patati patanti. But when it comes to bhutkala rupam, there is a change in the way it is used for masculine gender and it is used for feminine gender. It is going to be hyaha patita vantaha for balakaha, hyaha patita vatyaha for balikaha. But when it is for the present tense, balakaha adhya patanti, balikaha adhya padhanti. For present tense, it is going to be the same. But when it is going to be used in the plural form, balakaha hyaha patita vantaha. Hyaha patita vantaha. And for feminine gender, balikaha hyaha patita vatya. This is the change that is going to be there for past tense also. So, adhya vayam patamaha. Yaha vayam patita vantaha. So vayam is for all of us. But when we are using vayam, when we are referring to patita vantaha, what it indicates is this is for masculine gender. Yaha vayam patita vantaha. Adhya vayam patamaha ityukte here it could be either masculine or feminine. Patamaha is for both. But when we are specifying patita vantaha, this is masculine usage. Also, Yaha vayam patita vantaha. Vayam means we all. Similarly, adhya vayam patamaha. Patamaha is generally for feminine gender or masculine. It is again we, patamaha. We are reading. That is what is patamaha. Vayam patamaha. Aham patami, vayam patamaha. Aham patami. So I am reading. Vayam patamaha, we all are reading. Yaha vayam patita vatyaha, we have read. Yesterday we have read, and when we are saying patita vatyaha, it is feminine. So it is, we have read yesterday, this is what is the feminine gender are saying. Yaha vayam patita vatyaha. Astu, that is how it is going to be. So let us practice this as well. Aishwarya Bhangini Astiva.
Ashti Mahodaya.
Astu, is this visible, Bhagini?
Yes, Mahodaya.
Astu. So, can you please read them aloud?
Gacchati. Gatavan. Gatavantaha. Agacchati. Agatavan, agatavantaha. Upavashyati.
Upavishyati.
Upavishyati. Upavishtavan, upavishtavantaha. Uttishtati. Uttitavan, uttitavantaha. Khadati. खादितवान् खादितवन्तः पिबति पीतवान् पीतवान् पीतवन्तः पठति पठितवान् पठितवन्तः लिखति लिखितवान् लिखितवन्तः वदति उक्तवान् उक्तवान् उक्तवन्तः शृणोति श्रुतवान् श्रुतवन्तः पश्यति दृष्टवान् दृष्टवन्तः चिन्तयति चिन्तितवान् चिन्तितवन्तः
Samijinam bhagini. So all of these are pullingam that are present in utkala rupam, ekavachanam and bahuvachana rupam. Bahu sami. Astu agre. Aam bhagini. Agre vandana bhagini. Astiva.
Astiva. Astiva mohdaya.
Aam bhagini. So astra trilinga rupam. Ah.
Yeah. Gachati vartaman kala. भूतकाल गतवती वेन् वेन् सिङ्गुलर्
एकवचनरूपं
एकवचनं गतवती बहुवचनरूपं गतवत्यः
गतवत्यः समीचीनम्
लेट् मी जस्ट् इन्लार्ज् इट् लिटिल् ओके अगच्छति नो नो इट्स् ओके ऐ डू इट् माय ओन् माय स्क्रीन् हा
अस्तु
थैंक यू अगच्छति अगतवती भूतकाल स्त्रीलिंग एकवचनम बहुवचनम अगतवत्स्य वत्यः
आगतवती आगतवत्यः
आगतवती आगतवत्यः उपविशति उपविशतवती
उपविशतवती
विष्टवति उपविष्टवत्यः
समीचीनम्
उत्तिष्ठति उत्तिष्ठवति उत्थितवति उत्थितवत्यः इट्स् वेरि टङ्ग् ट्विस्टिङ्ग्
रूपं चेञ्जस् वेन् वि कैण्ड् आफ् यूस् दिस् कैण्ड् आफ् सफिक्स्
खादति खादति खादितवती
भगिनी इन् संस्कृतं वाट् हेपन्स् इस् अन्लैक् इन् हिन्दी वि कैण्ड् आफ् यूस् फार् द फुल् लेटर् आर् द हलन्त लेटर् द सेम् त एण्ड् त विल् यूस् त वि डोण्ट् से एव्रिथिङ्ग् इट् इस् खादित् सो खादित् इस् करेक्ट् इन् हिन्दी बट् हियर् इट् शुड् बि प्रोनौन्स्ड् फुल्लि खादित्
ओके खादितवती खादितवत्यः पिबति पीतवती पीतवत्यः पिबति पीतवती पीतवत्यः पठति पठितवती पठितवत्यः लिखति लिखितवती लिखितवत्यः
लिखितवती
लिखितवत्यः वदति उक्तवती उक्तवत्यः शृणोति श्रुतवती श्रुतवत्यः पश्यति द्रष्टवती द्रष्टवत्यः चिन्तयति चिन्तितवती चिन्तितवत्यः
समीचीनम्
इस् देर् मोर् ऐ
कान् नो
समीचीनम् धन्यवादः महोदय
आं भगिनि अस्तु सो दिस् इस् वाट् वी हव् सीन् इस् भूत्कालरूपम् for both masculine gender and feminine gender. So, pathati is becoming patitavan and patitavantaha for masculine. patitavati and patitavatya for feminine. So this is how it is going to be in singular form and plural form for each of these words. Similarly, we will try to look at how this is going to be in future tense or bhavishyat kala rupaha. So balakaha adhya patati. Adhya ityukte today. Balakaha adhya patati. Balakaha shvaha pateshyati. Balakaha shvaha pateshyati. Similarly, balika adhya patati. Balika shvaha pateshyati. Balika shvaha pateshyati. So similarly, balakaha adhya patati. Balakaha shvaha pateshyati. Balakaha adhya tarati. Balakaha shvaha tarishyati. Balakaha adhya khadati. Balakaha shvaha khadishyati. Balakaha adhya kridati. Balakaha shvaha kridishyati. So this rupam is not subantam rupam. When we are looking at this bhavishyat kala rupam, these are all, these are tigantams. These are not subantams. So there are not, we have not converted them into noun forms. We are using them as verb forms only. Please remember, when you are using patishyati, tarishyati, khadishyati, kridishyati, these are all used in their respective tiganta, tigantam forms only. These are not subantam forms. Okay. So these are called tigantams only. Astu. So balika adhya patati, balika shvaha patishyati. Balika adhya tarati, balika shvaha tarishyati. So for masculine gender and feminine, it is the same. Patishyati for balika, balakaha, and balika also it is patishyati. Tarishyati, khadishyati, kridishyati. Vayamapi atra samanamasti. Astu, idanim, balakaha idanim patati, balakaha idanim tarati. Balakaha parashvaha patishyati, balakaha parashvaha tarishyati. Balika idanim khadati, बालिका इदानीं क्रीडति बालिका परश्वः खादिष्यति बालिका परश्वः क्रीडिष्यति बालिका प्रपरश्वः खादिष्यति बालिका प्रपरश्वः पठिष्यति बालिका प्रपरश्वः तरिष्यति बालिका प्रपरश्वः क्रीडिष्यति सो पठिष्यति तरिष्यति खादिष्यति क्रीडिष्यति आर वर्ब फॉर्म्स दैट कुड बी अप्लाइड फॉर बोथ सिंगुलर मैस्कुलाइन एंड फेमिनाइन जेंडर्स ओके दिस इज हाउ इट इज गोइंग टू बी फॉर usage when it comes to the bhutka, sorry, bhavishyata kala rupam or future tense. Astu? So gachati, okay, let us practice this. Next, Swarna Lakshmi Bhagini asti va?
Asti Mahadeva. Asti. Astu.
Aam Bhagini.
Gachati, Vardhaman, Gami, Gamishyati, Gamishyati.
Gamishyati.
Gamishyati. Agachati. Agamishya. Agamishyati. Likati. Lekishyati. Pibati. Pashyati. Yuttishtati, Uttasyati, Upavishtati, Upakeshyati,
Upavekshayati,
Upavekshayati,
Vekshayati,
Upaveshya,
Vekshaksha,
Upavekshyati,
Upavekshayati,
then Gachami, Garmishyami. Agamishyami. Agachyami. Agamishyami. Likami. Lekishyami. Pibami. Pasyami. Uttishtami. Uttasyami. Upavishyami. Upavekashyami.
Upavekshayami.
Upavekshayami. Upavekshayami.
Namaste. Samichinam.
Dhanyavaad.
Asto. So we have seen how they are there in the singular usage, in the singular tense, and for the gender, for both the genders, it is going to be the same. Similarly, for plural case or the plural way, it is going to be how it is going to be. It is like this: Balakaha adya patanti. So we know patati, balakaha adya patati, balakaha adya patanti. Similarly, balakaha shvaha patishyanti. Balakaha shvaha patishyanti means they are going to read tomorrow. Balakaha shvaha patishyanti. Astu. Similarly for balikaha, balikaha adhya pathanti, balikaha shvaha patishyanti, balikaha shvaha patishyanti. So it is going to be the same for both the genders. It is going to be patishyanti for masculine gender and for feminine gender. Astu. So similarly, adhya vayam pathamaha. So we are going to read today. We are reading today. Adhya vayam pathamaha. Shvaha vayam patishyamaha. We are going to read tomorrow. Patishyamaha. Pathamaha patishyamaha. Patati patanti. Likhati likhanti. Astu kridati kridanti. Similarly, kridamaha kridishyamaha. Likhitam likhamaha. Lekishyamaha. So this is how it is going to be. And similarly for feminine gender also, adhya vayam pathamaha, shvaha vayam patishyamaha. So bahuvachana rupam for bhavishyatkala rupam, this is going how it is going to be for both masculine gender and feminine gender, whether it is in singular case or it is in plural case. Okay.
Mahoday, ek sandeham asti. If it is a neuter gender, what will we do?
So for, very good question. So for certain krudantas, possibly we will not have certain neuter genders. Astu bhagini. So we'll use some other krudantas for it.
Okay,
and there are a lot of krudantas. There are almost 140 krudantas. And this is just one of it.
Okay.
Astu, okay. Okay, and this suffix that we are using is called tavatu pratyanta. This is tavatu pratyanta. This is the suffix that we are adding to make this, and there is a lot of conversion also that is happening internally. If you are already attending some of the advanced classes, it would have been covered or it will be covered anyway. And if you are attending the Panini Vyakarana classes, these things will be covered in very detail. So once you know the word form, how it should be there, what will happen to the conversion, what will happen to the last letter or the first letter, whether it is going to convert it into U form, O form. So there are a lot of rules for it. So once we attend those classes, so some of these things will be cleared. So that will be really helpful. From this stage, the Panini Vyakarana classes, as we get into the depth of it, that will be very helpful. Next one is how do we pronounce this word. So let us try to see this for Bhavishyat Kala Rupam. Manjushri Bhagni Astiva.
Am Mahodaya. Hello.
Am Bhagni, can you please do this?
Yes, sir. वर्तमान कालः गच्छति भविष्यकालः गमिष्यति वर्तमानकाल बहुवचनरूपं गमिष्यन्ति अहं गमिष्यामि वयं गमिष्यामः आगच्छति आगच्छति आगमिष्यति आगमिष्यन्ति आगमिष्यामि आगमिष्यामि आगमिष्यामः उपविशति उपवेक्षति उपवेक्षन्ति उपवेक्षामि उपवेक्षामः
उत्तिष्ठति उपवेक्षयति उपवेक्ष भगिनि अत्र य इज नॉट हलन्तम् सो प्लीज प्रोनाउंस द य कंप्लीट
ओके उपवेक्षमि
उपवेक्षयति
उपवेक्षयति
उपवेक्षयति उपवेक्षयन्ति
उपवेक्षयन्ति
Ksha will not come immediately, Bhagini. So please give some time for the next letter. So relax there. Upaveksha yati. Upaveksha yanti. Because for when we try to do it with the same speed for va will come very fast from the mouth. Here will not come very fast because we are touching our tongue to the topmost jaw. Here will take some time. It will not come as fast. We are pronouncing va. Va is not touching anything. The tongue is not touching anything. So from va to kha, it will take time, some time. So we have to pause for kha sometimes. Okay? Because the next letter is again release of the tongue. So it is upavekshaya. Ya is again coming with release. So we have to kind of give time for kha. Okay?
Okay.
Otherwise, for me also it is the same problem. Bhagini. If I do upavekshaya, kha will not come. So it is also the same problem. I realize that we have to give some time for kha.
Upavekshayati. Okay. Uttishthati. Utthasyati. Utthasyanti. Utthasyami. Utthasyamaha.
Utthasyami. Utthasyamaha.
Utthasyami. Utthasyamaha. Khadati. Khadishyati. Khadishyanti. Khadishyami. Khadishyamaha. Pibati. Pasyati. Pasyanti. Pasyami. Pasyamaha. Pathati. Pathishyati. Pathishyanti. Pathishyami. Pathishyamaha. Sa likhati. Saha likhishyati. Te likhishyanti. Oh, sorry. Le. Le turns to le. Okay. Sorry. Sorry. Saha likhati. Lekhishyanti. Te lek. I will say again. Really sorry.
Te lekhishyanti. Aham lekhishyami.
Aham lekhishyami. Vayam lekhishyamaha. Saha vadati. Saha vadishyati. Te vadishyanti. Aham vadishyami. Vayam vadishyamaha. I am just adding the karta also, so that the distinction is clear.
Both are mentioned. Yes, yes. Please do that. That is how we should practice also. That will be helpful.
Yes, sir. Saha shrunoti. Saha shroshyati.
Shroshyati.
Te shroshyanti. Aham shroshyami. Vayam shroshyamaha. Saha pashyati. Saha drushyati.
Drakshayati. Drakshayati. For
drakshayati.
It will become drakshayati. Dhru will become dra. Drakshayati. Ar, it will become ar. Vastu. Samichina.
Okay. Te drakshanti.
Drakshanti.
Aham drakshami. Vayam drakshamaha.
Samichina.
Saha chintayati. Saha chintayishyati. Te chintayishyanti. Aham chintayishyami. Vayam chintayishyamaha. Saha pruchyati. Saha prakshyati. Te prakshanti. Aham prakshami. Vayam prakshamaha. Sa dadati. Saha dasyati. Te dasyanti. Aham dasyami. Vayam dasyamaha.
Bahu samichinam.
धन्यवादः महोदय.
अग्रे किम् अस्ति? अग्रे रमा भगिनी अस्ति वा? अस्तु, रमा भगिनी नास्ति चेत् मुरुगन् महोदय अस्ति वा?
आया सः स्वीकरोति वर्तमानकाले बहुवचनं सः स्वीकरिष्यति.
आं महोदय, समीचीनं.
वर्तमानकाले भविष्यत्काल रूपाणि स्वीकरिष्यन्ति. स्वीकरिष्यामि, अहं स्वीकरिष्यामि, वयं स्वीकरिष्यामः
बहु समीचीनम् आम् महोदय
वर्तमानकाले सः चलति बहुवचन भविष्यत्कालरूपाणि चलिष्यति चलिष्यन्ति अहं चलिष्यामि वयं चलिष्यामः वर्तमानकाले धावति धाविष्यन्ति धाविष्यन्ति धाविष्यति धाविष्यन्ति अहं धाविष्यामि वयं धाविष्यामः
बहु समीचीनम्
गायति गायन्ति गास्यति गास्यन्ति अहं गास्यामि वयं गास्यामः नृत्यति नृत्यति
नर्तिष्यति
नर्तिष्यति नर्तिष्यति नर्तिष्यन्ति अहं नर्तिष्यामि वयं नर्तिष्यामः
समीचीनम्
क्रीडति क्रीडिष्यति क्रीडिष्यन्ति अहं क्रीडिष्यामि वयं क्रीडिष्यामः
समीचीनम्
हसति हसिष्यति हसिष्यन्ति हसिष्यामि हसिष्यामः वयं रोदिति रोदिष्यति रोदिष्यन्ति रोदिष्यामि रोदिष्यामः पशति
पचति
पशति पक्ष्यति पक्ष्यन्ति अहं पक्ष्यामि वयं पक्ष्यामः परिवेशयति परिवेशयिष्यति परिवेशयिष्यति परिवेशयिष्यन्ति परिवेशयिष्यामि परिवेशयिष्यामः
अस्तु
नयति नेष्यति नेष्यन्ति नेष्यामि नेष्यामः आनयति आनेष्यति आनेष्यन्ति अहम् आनेष्यामि वयम् आनेष्यामः सः स्मरति सः स्मरिष्यति स्मरिष्यन्ति ते स्मरिष्यन्ति अहं स्मरिष्यामः वयं
अहं स्मरिष्यामि
अहं स्मरिष्यामि वयं स्मरिष्यामः विस्मरति सः विस्मरति सः विस्मरिष्यति ते विस्मरिष्यन्ति अहं विस्मरिष्यामि वयं विस्मरिष्यामः
अस्तु महोदय अस्तु बहु समीचीनं
धन्यवादः महोदय
आम् अस्तु अग्रे रमा भगिनी अस्ति वा
आं महोदय आं महोदय अहम् अस्मि महोदय स्वीकरोति
न क्रीणाति भगिनि क्रीणाति Thank you.
अहं शृणोमि वा महोदय अहं न पश्यामि महोदय स्क्रीन् न पश्यामि
अस्तु भगिनि अस्तु क्रीणाति इति शब्दः अस्ति अत्र एतत् न दृश्यते वा
अहं पश्यामि दृश्य क्रीणाति क्रिष्यति क्रेष्यति
Zoom out stolen. Oh, that please zoom out.
Some other sound is there. Some other sloga sound is there. Madhya.
Let me mute you everybody one second.
Yeah, okay. Some other sloga.
Okay, Rama Bhagini has left. Astu.
Amohode.
Usha Bhagini. Rama Bhagini, you have joined?
Yeah, I'm joined. I have joined.
Bhagini, I think there is some background mantra that is being played. Om Namah Shivaya, Om Ganeshaya. So,
Ganeshaya Namaha.
Ganeshaya Namaha. Okay, we are hearing that, Bhagini.
I so, hear my puja mandir.
Astu.
क्रीणाति क्रेष्यति क्रेष्यन्ति क्रेष्यामि क्रेष्यामः
समीचीनम्
विक्रीणाति विक्रेष्यति विक्रेष्यन्ति विक्रेष्यामि विक्रेष्यामः
विक्रेष्यामि विक्रेष्यामः
श्यामः प्रेष प्रेष प्रेषयति प्रेषयति प्रेषयन् प्रेषय प्रेषय प्रेषयिष्यति
भगिनि न श्रूयते भगिनि
न प्राप्ना प्राप्नोति प्राप्ष्यति प्राप्ष्यति प्राप्ष्यन्ति प्राप्ष्यामि प्राप्ष्यामः तरति तरिष्यति तरिष्यन्ति तरिष्यामि तरिष्यामः पतति पतिष्यति पतिष्यन्ति पतिष्यामि पतिष्यामः मिलति मिलिष्यति मेलिष्यति मेलिष्यन्ति मेलिष्यामि मेलिष्यामः जानाति ज्ञानाति
ज्ञास्यति
जानाति ज्ञास्यति ज्ञास्यन्ति ज्ञास्यामि ज्ञास्यामः त्यजति त्यक्ष्यति त्यक्ष्यति त्यक्ष्यन्ति त्यक्ष्यामि त्यक्ष्यामः गृह्णाति ग्राहिष्यति ग्राहिष्यन्ति ग्रहीष्यामि ग्रहीष्यामः जिग्रति गरिष्यति गरिष्यति गरिष्यन्ति गरिष्यामि गरिष्यामः धरति धरिष्यति धरिष्यन्ति धरिष्यामि धरिष्यामः वसति वश्य वत्य वस् वस्त्यस्ति वस्त्यति वस्त्यन्ति वस्त्यामि वस्त्यामः निद्रति निद्रश्यति निद्रस्यान्ति निद्रस्यामः
निद्रास्यति निद्रास्यन्ति निद्रास्यामः
ऐ रिपीट् महोदय निद्राति निद्रास्यति निद्रास्यन्ति निद्रास्यामि निद्रास्यामः नमति नंस्यति नंस्यति नंस्यन्ति नंस्यामि नंस्यामः
समीचीनं समीचीनं
भगिनि धन्यवादः महोदय
आं भगिनि So, so this is how we are going to use Bhavishyat Kala Rupam. This is how we are going to see them in singular form and plural form. And also we have taken the first for the self and first person and the third person. We have seen both for the first person and the third person. That is also we have seen. So, Kreshyati, Kreshyami. Kreshyanti, Kreshyamaha. So, we have also seen the singular and the plural as well for Bhutkala and Bhavishyatkala. So that is how it is going to be. So next one is how it is to be. So for example, in the year 1980, if we were to refer somebody, so Raghavaha Navadasha Adhika. Adhika, what is 80? Navadasha Adhika? Ashitihi, Ashiti Varshe, Balakaha Atit. अस्तु अशीतिः इति न इति सेवेण्टि इफ् इट् इस् 1970 नवदश अधिक
दश अधिक
अधिक
सप्तिः
सप्त
सप्ततिः
सप्ततिः सप्ततिः नवदश अधिक सप्ततिः वर्षे 1960
षष्टिः
षष्टिः नवदश अधिक षष्टिः 1950
पञ्चाशत्
पञ्चाशत् नवदश अधिक पञ्चाशत् 1930
त्रिंशत्
नवदश अधिक त्रिंशत् नवदश अधिकं नवदश अधिक त्रिंशत्
1940
चत्वारिंशत् नवदश अधिक चत्वारिंशत् 1990 नवदश नवतिः वर्षे बालकः आसीत् राघवः नवदश अशीतिः वर्षे बालकः आसीत् सो हि वाज़् अ बाय् इन् 1980 राघवः अद्य पुरुषः अस्ति सो हि इस् a man today raghavah
do your thing better than
what is this vimshat adhika shashtih vimshat adhika shashtih varshe means vimshat is
2000
na 2000 अधिक सो द्विसहस्र अधिक षष्टिवर्षे द्विसहस्र सो 2060 इफ् यु वाण्ट् टु से द्विसहस्र एण्ड् दिस् वन् इस् आल्सो नवदशशतं बिकास् इट् इस् 1900 वि हाव् टु यूस् नवदशशतम्
अधिकम्
अधिक अष्टा अशीतिः वर्षे सप्ततिः वर्षे नवदश शतम् अधिक षष्टिः वर्षे 1960 इफ् यु हाव् टु सेवन् इफ् यु हाव् टु से देट् इफ् यु आर् सेङ्ग् 2060 देन् इट् इस् द्विसहस्र षष्टिः द्विसहस्र अधिक षष्टिः वर्षे सो 60 इयर्स् मोर् देन् 2000 देट् इस् द्विसहस्र षष्टिः द्विसहस्र अधिकषष्टिः वर्षे वृद्धः भविष्यति सो 2000 द्विसहस्र सहस्र मीन्स् 1000 शतं मीन्स् 100 सो नवदशशतम् अधिक अशीतिः वर्षे आर् सप्ततिः वर्षे षष्टिः वर्षे पञ्चाशत् नवदशशतम् अधिक पञ्चाशत् वर्षे बालकः आसीत् सो इन् 1950 हि वास् ए बाय् टुडे राघव इस् अ म्यान् राघव अद्य पुरुषः अस्ति इन् 2060 हि इस् गोयिङ्ग् टु बि अन् ओल्ड् म्यान् राघवः द्विसहस्र अधिक षष्टिः वर्षे वृद्धः भविष्यति अस्तु सिमिलर्लि आसीत् मीन्स् हि वास् अस्ति मीन्स् इस् भविष्यति मीन्स् इस् गोयिङ्ग् टु बि सो आसीत् अस्ति भविष्यति दिस् इस् हौ यु आर् गोयिङ्ग् टु से संथिङ्ग् इस् गोयिङ्ग् टु बि संथिङ्ग् वास् अण्ड् संथिङ्ग् इस् अस्तु सिमिलर्लि आसीत् सीता नवदश शतम् अधिक अशीतिः वर्षे बालिका आसीत् अद्य सीता महिला अस्ति द्विसहस्र षष्टिः द्विसहस्र अधिक षष्टिः वर्षे वृद्धा भविष्यति का सीता द्विसहस्र षष्टिः वर्षे वृद्धा भविष्यति सो आसीत् अस्ति भविष्यति आसीत् अस्ति भविष्यति आसीत् अस्ति भविष्यति सिमिलर्लि बीजः आसीत् इट् वास् अ सीड् टुडे इट् ईस् अ स्माल् प्लाण्ट् सस्यमस्ति वृक्षः भविष्यति इट् इस् गोयिङ्ग् टु बि अ ट्री टुमोरो आर् इन् द फ्यूचर् इट् इस् गोयिङ्ग् टु बि अ ट्री बीजः अस्ति सस्यं बीजः आसीत् सस्यम् अस्ति वृक्षः भविष्यति वृक्षः भविष्यति अस्तु सिमिलर्लि हियर् आसन् आसन् फार् प्लूरल् आसीत् फार् सिङ्गुलर् आसन् इट् इस् नाट् आसन् इट् इस् ओन्लि आसन् बिकास् वि आर् यूसिङ्ग् हलन्तम् फार् नकार सो इट् इस् गोयिङ्ग् टु बि आसन् बालकाः आसन् पुरुषाः सन्ति वृद्धाः भविष्यन्ति वृद्धाः भविष्यन्ति सिमिलर्लि बालिकाः आसन् महिलाः सन्ति वृद्धाः भविष्यन्ति वृद्धाः भविष्यन्ति सिमिलर्लि फार् दिस् बीजाः आसन् सस्यानि सन्ति वृक्षाः भविष्यन्ति वृक्षाः भविष्यन्ति सो अस्ति आसीत् सन्ति आसन् अस्मि आस्म स्मः आस्म सो देर् इस् अ डिफ्रेन्स् द वे वि आर् प्रोनौन्सिङ्ग् अहम् अस्मि अहम् आस्म आस्म आसम् सोरि नाट् आस्म आसम् एण्ड् वयं स्मः वयम् आस्म आस्म दिस् इस् आसम् दिस् इस् आस्म दिस् इस् आसम् दिस् इस् आस्म अस्तु वयम् आस्म अहम् आसम् अहम् अस्मि वयं स्मः बालकः अस्ति बालकः आसीत् बालकाः सन्ति बालकाः आसन् अहम् अस्मि अहम् आसम् वयं स्मः वयम् आस्म अस्तु आसम् आस्म दिस् इस् हौ इट् इस् गोयिङ्ग् टु बि फार् दि थर्ड् पर्सन् अस्तु सो दिस् इस् वाट् वी हाव् फार् टुडे वी विल् क्विक्लि डू वन् सम्भाषणं हियर् सो लेट् मी ओपन् दट् बुक् पुस्तकं पेज् नम्बर् 39 also share that page number एतत् सम्भाषणं पठतु. So who is going to read this? Okay. Murugan Mohdi, asti va?
Haan, asti va, asti va.
So can you please read this sambhashanam?
Etat sambhashanam patatu. Ranganadaga. Here bhavan kutra asit. Agam mitrasya grihe asam. Tatra kaha... कः विशेषः विशेषः आसीत् तत्र कः विशेषः आसीत् मित्रस्य जन्मदिनम् आसीत् मित्रस्य जन्मदिनम् आसीत्
आसीत्
तत्र जयरामः अनन्तरं रामकृष्णः अनन्तः रामकृष्णः इद्यादवः आसन् वा इत्यादयः आसन् वा इत्यादयः आसन् वा सर्वे आम् आम् सर्वे अपि आसन् आम् सर्वे अपि आसन् भवतः गृहः गृहतः भवतः गृहतः के तत्र गतवन्तः वयं सर्वे अपि तत्र गतवन्तः आसम्
Asma. So we'll go one by one this word here. So we'll try to answer. So Ranganatha. Ranganatha is Sambhodana here. It is like he is saying, hello Ranganath. Ranganath. So it is like addressing him with an expression. So Ranganatha. Here is yukte yesterday. Bhavan putra asit. Bhavan is yukte. Where are you? पुत्र इत्युक्ते वेर् आसीत् वेर् वर् यु सो हि इस् नौ सेङ्ग् अहं मित्रस्य गृहे आसम् सो अहम् इत्युक्ते दिस् इस् द पर्सन् दट् वि आर् रेफरिङ्ग् टु ऐ मित्रस्य विच् विभक्ति दिस् इस् मित्रस्य षष्ठी विभक्ति गृहे Gruhe, which vibhakti is this? Did we see this?
Saptami.
Saptami vibhakti. Asam. Asam is?
Bahuvachanam Bhutakala.
Asam Bhagini, this is not Asma. This is Asam Bhagini.
Asam, okay.
Ekavachanam Bhutakala.
Ekavachanam Bhutakala.
Ekavachanam Bhutakala.
Bhutakala.
Samichya. Tatra, kaha visheshaha asit. Tatra, tatra is yukte? Because this is Pumlinga. It is actually with respect to the sentence, what was the special yesterday? Visheshaha. But Visheshaha is again Pumlinga Shabdaha. Is there any specialty? Kaha Visheshaha Aasit. Kim Vishesham Aasit or Kaha Visheshaha Aasit. So Visheshaha is used in plural sense here. In masculine gender. Visheshaha Aasit. Tatra Kaha Visheshaha Aasit. So, any special thing there yesterday, Visheshaha Aasit. So, Visheshaha Aasit. Again, this is Bhutkala Rupam. Mitrasya. Mitrasya is?
Shashti Vibhakti.
Shashti Vibhakti.
Friends.
Shashti Vibhakti. And this is Mitram. Mitram ityukte friend. Mitraha ityukte son. So this is Mitram. Mitrasya here we are referring to as friends. Janmadinam. Janmadinam of friend. Of friend's birthday. Janmadinam Aasit. So Janmadinam is again Dvitiya Vibhakti. And Aasit. Aasit is was yesterday or it was birthday of friend. Tatra. जयरामः अनन्तः रामकृष्णः इत्यादयः आसन वा सो इज आस्किंग वर देयर जयराम अनंत एंड रामकृष्ण अदर्स वर देयर वर दे देयर इत्यादि मीन्स ऑल ऑफ देम वर देयर आसन आसन मीन्स बहुवचन रूपम बहुवचन रूपम बहुवचन रूपम आसन आम आम मीन्स यस सर्वे अपि आसन सर्वे मीन्स ऑल ऑफ देम आल्सो वर देयर आसन भवतः बृहतः के तत्र गतवन्तः सो भवतः गृहतः फ्रम युअर हाउस गृहतः राइट यू रिमेंबर दिस इज गृह दिस इज विच यू हैव टू गृहतः
बहु ध्वनि
भवतः गृहतः फ्रॉम योर हाउस गृहतः सो फ्रॉम योर हाउस सो दिस इज यूज्ड एज वी आर यूजिंग इट फ्रॉम पंचमी विभक्ति गृहतः के हु ऑल हु वेंट राइट सो के तत्र गतवन्तः वेंट देयर राइट गतवन्तः हैड गॉन देयर तत्र मींस देयर गतवन्तः सो दिस इज बहुवचन रूपं गतवन्तः वयं सर्वे अपि गतवन्तः आस्म आस्म राइट सो वयं वयं मीन्स वी ऑल सर्वे वी ऑल अपि आल्सो गतवन्तः गतवन्तः इत्युक्ते दिस इज वी आर सेइंग वी वेंट देयर आर वी हैव गॉन देयर राइट गतवन्तः सो वयं सर्वे अपि गतवन्तः दिस इज यूज्ड इन बहुवचन रूपं दिस विल नॉट बी गतवान इट विल बी गतवन्तः आस्म आस्म इत्युक्ते वि वर् देर् वि हव् गान् देर् आल् आफ् अस् हेड् गान् देर् अस्तु सो लाट् आफ् वर्ड्
महोदय एक संशयः गृहतः पञ्चमी विभक्ति आर् षष्ठी विभक्ति
फ्रम् हियर् इट् इस् आक्चुलि भवतः इट् इस् फ्रम् युवर् हौस् सो दिस् इस् मीनिङ्ग् फिफ्त् पञ्चमी विभक्ति ओन्लि आफ् हौस् न from your house bhavatah gruhatah ke ke tatra gatavantah
oh okay okay
astu bhagini so this is panchami vibhakti astu so complete the first exercise here we have already done this exercise so please practice this try to practice this this one we have already done it in the class of all the words So please practice page number 39, second exercise we'll do again. We have already practiced page number 40 also. So just practice them again. For all the words that have been given here, you have to write the, so it is saying, Khatayam sthulaksharaihi drushyamanani kriyavadanani bhutakala rupena parivartayatu. Means whatever words have been highlighted, those words you have to convert them into bhutkala rupam. Asti, what is the bhutkala rupam? Similarly, gachati, what is the bhutkala rupam? Kreenati, gachati, asti, asi, bhavati, abhavat or abhavat it is given here. For bhavati only it is different. Bhavati it is abhavat, abhavan, abhavat, abhavan. So that is what you have to see here. That is given at the last line. Okay, page number 38, last line is what is given for bhavati. So please try to do this as your homework. 11.3 this is your homework. Please try to convert the present tense into the past tense. Okay, you have to identify the words that have been boldened and you have to convert them into the past tense. That is what will be the homework. And similarly, do the next exercise. 11.3e is also at what time somebody has gone at some place. So, Sandeepah Dashavadane Vidyale Aasit. Divya Ekadashavadane Peedangane Aasit. Krushnah Dvadashavadane Gruhe Aasit. Aham Saptavadane Granthale Asmi or Asma. Right? That is what you are going to, or Asam. Right? That is what you are going to use this word here with respect to the usage. So please try to complete these sentences also. And Bhavishyat Kala Rupani we have already done here. here what is given here is present tense has been this is provided only in the future tense. So what is it saying? Bhavan shuha kim kim karishyati iti atra likhatu. So what are you going to do tomorrow is what you have to write this year. The sample sentence has been given here. Astu? So same thing, you have to do this. And we have seen the words already. We have seen all these are different. The way they are pronounced in the future tense are different. For example, pibati will become not pibishyati, but it will become paschyati. Similarly, pruchyati will not become pruchikshyati, it will become prakshayati. Dadati will become dasyati. Tejati will become tyakshayati. Janati will become not janishyati, but gyasyati. Shaknoti will become shakshyati. Shrunoti will become shroshyati, not shrunishyati. Upavishati will become upavekshayati. Likhati will become lekhishyati. Uttishtati will become utthasyati. Milati will become melishyati. Grunhati will become grahishyati. So there is slight difference. There is a transformation of certain letters here. These aspects are anyways covered in the Panini grammar class. Why they are becoming like this? The rules are specifically mentioned in the Panini grammar class. If you have started attending them, some of them will be clear to you. If it is not clear, just note these differences. Okay? If you are not able to identify, just note these differences, why it is like this. When you go to the advanced classes, these will become very clear. So there are a lot of changes with respect to letters. And there are sutras also. There are sutras of why these changes are happening. And these are given in the Panini's Ashtadhyayi. Astu? So these are covered in detail in Panini grammar classes. If you start attending them, it will be like very good understanding of the grammar itself. Astu? So this will be our homework, 12.2, 12.1, 11.3e and 11.3r. These will be your homework. Please practice this one. We have already practiced this table here in our class. So you need not do it, just note the differences of how they are pronounced. Vadati is Uktavan, Pibati is Pitavan, Likhati is Likhitavan, Likhitavati, Likhitavantaha, Likhitavati, Likhitavatyaha, Nayati, Neetavan, Neetavantaha, Neetavati, Neetavatyaha. So that is how you can practice this. The root form of each of these Bhutkala Rupams have been given, you just have to practice them. Astu? So this is what will be our homework for this week. Please try to do them. And read this katha here, that is there here. We will again revise this on our next class as well. The homework is to identify the words which are given in the present tense and convert them into the past tense, or we have to put them in the bhutkala rupam. Astu? That is what will be the homework in that page. In this page, we have to construct the sentences. Again, in 12.1, we have to construct the sentences. Our own sentences, we have to construct them. Astu? So if you have any questions, please ask them now. If there are no questions, we may complete with our prayer and then we will close our session.
Asti Magaya. Om Shanti Mantranam. Purnamada Purnamidam Purnat Purnamuchyate Purnasya Purnamadaya Purnamevava Vashishyate. Om Shanti Shanti Shantihi. Dhanyavada Madhya.
आम् महोदय धन्यवादः शुभरात्रि
धन्यवादः शुभरात्रि महोदय
धन्यवादः महोदय
धन्यवादः
धन्यवादः